एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रपतिना रामचन्द्र पौडेलेन राष्ट्रियसभायाः अधिवेशनम् आहूतम् वर्तते। राष्ट्रपतिना पौडेलेन यो नेपालस्य संविधानस्य अनुसारेण नेपाल सर्वकारस्य मन्त्रिपरिषदः परामर्शेन आगामिनः माघमासस्य चतुर्थ दिवसे रविवासराय पूर्वाह्नस्य एकादशवादने सीमाप्रासादवर्तिनी संघीय संसद सचिवालये राष्ट्रियसभायाः अधिवेशनम् आहूतमस्तीति राष्ट्रपति कार्यालयेन ज्ञापितम् वर्तते। तत्पूर्वं ह्य एव सर्वकारेण राष्ट्रियसभायाः अधिवेशनस्य आह्वानाय राष्ट्रपतेः समक्षम् परामृष्टमासीत्। ह्य प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये उपविष्टेन मन्त्रिपरिषदः उपवेशेन संघीय संसदः अन्तर्गतायाः राष्ट्रियसभायाः अधिवेशनम् आगामिनः माघमासस्य चतुर्थे दिवसे रविवासरे पूर्वाह्नस्य एकादशवादनाय आह्वातुम् परामर्शनाय निर्णीतमासीदिति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च जगदीश खरेलः असूचयत्। मन्त्रिपरिषदः उपवेशेन पञ्चवर्षीय वित्तीय क्षेत्र सम्बद्धा रणनीतिः मानव विक्रय विरूद्धस्य एतद् विक्रमवर्षीया राष्ट्रिय नीतिश्च स्वीकृते स्त इति च प्रवक्ता मन्त्री खरेलः असूचयत्। उपवेशेन गोरखापत्र संस्थानस्य अध्यक्षपदे गोविन्द प्रसाद भण्डारिणम् नियोक्तुम् च निर्णीतम् वर्तते इति मन्त्री खरेलः अज्ञापयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः उपवेशः अद्यतन दिवसाय आहूतो वर्तते। दलस्य सानेपावर्तिनी केन्द्रीय कार्यालये पूर्वाह्नस्य एकादशवादने उपविश्यमाने उपवेशे दले पश्चात्तन विकसित परिस्थितेर विषये विमृश्यते इति दल कार्यालयस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः असूचयत्। नेपाली कांग्रेस दलस्य विशेष महाधिवेशन पक्षधरैः रविवासरात भ्रिकुटी मण्डपस्थाने आयोजितस्य विशेष महाधिवेशनस्य आन्तरसत्रम् अद्ययावत् सञ्चलति। नेपाली कांग्रेस दलस्य महामन्त्रीद्वयेन गगन कुमार थापा विदेन विश्व प्रकाश शर्मणा च प्रस्तुतम् प्रतिवेदनम् आधृत्य विद्यमाने विमर्शने आन्तरसत्रे एवं संसूचनम् प्रदत्तमस्ति। विशेष महाधिवेशनायोजक समितेः अनुसारेण अद्य आन्तरसत्रे नेतृत्व चयनादि विषयेषु निर्णयनस्य सम्भावना अस्ति। आन्तरसत्रे ह्यस्तन दिवसात् सप्तानाम् प्रदेशानाम् उपत्यकाया भ्रातृ शुभेच्छुकानाम् जनसम्पर्क समितेश्च पृथक् पृथक् नवसमूहान् संघटय विमर्शनम् सञ्चलद् वर्तते। अत्रान्तरे नेपाली कांग्रेस दलस्य विशेष महाधिवेशनस्य आन्तरसत्रेण नेपाली कांग्रेस दलस्य एतद् विक्रमवर्षीय विशेष केन्द्रीय महाधिवेशन कार्यविधि पारितकृतो वर्तते। विशेष महाधिवेशन पक्षधराणाम् ह्य काष्ठमण्डपस्य भ्रिकुटी मण्डपे सञ्चलता आन्तरसत्रेण पारितकृते कार्यविधौ केन्द्रीय समितेः विघटनस्य प्रावधानम् समाविष्टम् वर्तते। कार्यविधौ कांग्रेस दलस्य वर्तमान केन्द्रीय कार्यसमितेः पदावधिः समाप्तोऽस्ति। त्यतः केन्द्रीय कार्यसमितेः विघटनस्य पञ्चदश महाधिवेशनस्य सम्पादनम् यावत् नूतन केन्द्रीय कार्यसमितेः निर्वाचनस्य च प्रावधानम् उल्लिखितम् वर्तते। आन्तरसत्रे नेपाली कांग्रेस दलस्य महामन्त्रिणा गगन कुमार थापा विदेन दलम् नूतन सन्तत्या विश्वासयोग्यम् गतिशीलम् आधुनिक लोकतान्त्रिक शक्तिम् च विधातुम् संकल्पेन सह सामयिक राजनीतिक प्रस्ताव प्रस्तुतो वर्तते। अपर महामन्त्रिणा विश्वप्रकाश शर्मणा च दलस्य विधानम् कार्यशैली कार्यक्रमाञ्च समयानुकूलतया परिमार्ज्य दलेन अग्रे वर्धनीयम् इति प्रस्ताव विहितो वर्तते। नेपाली कांग्रेस दलस्य कार्यवाहक सभापतिना पूर्णबहादुर खड्का विदेन दले एकताम् सन्धार्य अग्रे वर्धितुम् सर्वे अनुरूद्धा वर्तन्ते। नेपाली कांग्रेस दलस्य विशेष महाधिवेशनस्य सञ्चालनस्य परिस्थितौ विज्ञप्तिम् प्रकाश्य कार्यवाहक सभापतिना खड्का विदेन यः दलैकतायाम् प्रतिकूल प्रभावस्य सजगान् कथम् विधानपि गतिविधिन् न विधातुम् सर्वे नेतारः कार्यकर्तारश्च अनुरुद्धाः वर्तन्ते। संचार सूचना प्रविधि मन्त्री जगदीश खरेल निगदति देशे सुशासनस्य पारदर्शितायाश्च स्थापनेन भ्रष्टाचारस्य नियन्त्रणेन च सहैव समुन्नत नेपालस्य निर्माणाय डिजिटल वैद्युत रूपान्तरणम् आवश्यकम् वर्तते। संचार सूचना प्रविधि मन्त्रालयस्य राष्ट्रिय कृत्रिम बौद्धिकता केन्द्रस्य ऐशयिक विकास कोषस्य च संयुक्तायोजनायाम् ह्य आयोजिताम् नेपाले कृत्रिम बौद्धिकतायाः श्रृंखलाम् उद्घाटयन् मन्त्री खरेलः वैद्युताङ्कन युत नेपालस्य निर्माणस्य नीतेः अग्रेवर्धनस्य सन्दर्भे कृत्रिम बौद्धिकता सम्बद्धम् विमर्शनम् कृत्रिम बौद्धिकतायाः नीतेः क्रियान्वयनाय उपयोगी शिष्यतीति विश्वासम् व्यक्तवान्। स्वास्थ्य जनसंख्या मन्त्री डा सुधा गौतमः असंक्रामक रोगाणाम् नियन्त्रणस्य कार्यम् सर्वकारेण प्राथमिकतायाम् संस्थाप्य कार्यम् विद्यमानम् अस्ति इति सूचयति। असंक्रामक रोगेण मानस स्वास्थ्य सम्बद्धेन च विश्व स्वास्थ्य संगठनस्य दक्षिण पूर्वेशिया क्षेत्रस्य सम्मेलने स्वास्थ्य मन्त्री गौतमः असंक्रामक रोगाणाम् उपचारस्य व्यय वर्धनस्य अवस्थायाम् अस्ति इत्यतः सर्वकाराय विपुलार्थिक भार निपतितो स्थिति उदैरयत्। नेपाले प्रतिशतम् एकसप्ततिः रोगिणः असंक्रामक रोगाणाम् सन्तीति अनुमितम् वर्तते। कार्यवाहक प्रमुख निर्वाचन आयुक्तः रामप्रसाद भण्डारी निगदति निर्वाचनायोगेन दण्डनमुख निर्वाचनाचार संहितायाः क्रियान्वयने शून्य सहनशीलता अवलम्ब्यते। मुख्य निर्वाचनाधिकृतानाम् च कृते ह्य प्रारब्धे अभिमुखीकरण कार्यक्रमे कार्यवाहक प्रमुख निर्वाचन आयुक्तः भण्डारी आचार संहितायाः कठोरेण पालनाय प्रेरणीयमिति बलम् दत्तवान् इति समाचाराः।